इंद्रा पर्वता बृहता रथेन वामीर्ष आवहतम सुवीराः वेतम हव्यान्यध्वरेषु देवा वर्धेथाङ्गेर्भिर्लजा मदन्ता तिष्ठा सुखम् मघवन्मा परागाः सोमस्य नुत्वा सुषुतस्य यक्षे पितुर्न पुत्रस्य च मारभेत इन्द्रस्वादिष्ठजा गिरा शचीवः शंसावाध्वरिजो प्रतिमे गृणीहीन्द्रायवाहः कृणवा वजुष्टम् एदम् बर्हिर्यजमानस्य सीताथा च भो दुःखमिन्द्रायशस्तम् जायेदस्तम् मघवन्सेतुजो निस्तदित्वा युक्ता हरजो वहन्तो यदा कदा च सुनवा वसोममग्यष्ट्वा दूतो धन्वात्यच्छ परा जाहि मघवन्ना च जाहीन्द्रभ्रातरुभयत्रा ते अर्थम् यत्रा रथस्य बृहतो निधानम् विमोचनम् वाजिनो रासभस्य अपाः सोममस्तमिन्द्रप्रजा हि कल्याणीर्जाजासुरणम् गृहेते यत्रा रथस्य बृहतो निधानम् विमोचनम् वाजिनो दक्षिणावत इमे भोजा अङ्गिरसो विरोपादिवस्पुत्रासो असुरस्य वीराः विश्वामित्राय दधतो मघानि सहस्रसा मे प्रतिरन्त आयोः रोपम् रोपम् मघवा वो भवेति भाजाः कृण्वानस्तन्वा अम्बरिस्वाम् त्रिर्यद्दिवः परिमहोर्तमागात्स्वैर्मन्त्रैरनृतपारता वा महाङ्घ्रशर्देवजा देवज्योतोस्तभ्रात्सिन्धवर्णवन् रुचक्षाः विश्वामित्रो यदवहत्सुधा समप्रजाजत कुशिकेभिरिन्द्राः हंसा इव कृणुध श्लोकमद्रभिर्मदन्त गीर्भिरध्वरे सुते स च देवेभिर्विप्रारषयो नृचक्षसो विपिबध्वङ्कुशिकाः सौम्यम् मधो उपप्रेतकुशिकाश्चेतयध्वमश्वम् राजे प्रमुञ्चता सुदासाः राजा वृत्रञ्जङ्घनत्प्रागपागुदकथा जजाते पर पृथिव्याः य इमे रोदसी उभे अहमिन्द्रमतुष्टवम् विश्वामित्रस्य रक्षति ब्रह्मेदम् भारतञ्जनम् विश्वामित्रा अरासत ब्रह्मेन्द्राय वज्रिणे करदिन्नः सुराधसः किन्ते गृण्वन्ति केकटेषु गावो नाशिरम् दुह्रेण तपन्ति घर्मम् आनो भरप्रमगन्धस्य वेदो नैचा शाखम् मघवन् रन्धजानः स सर्परेरमतिम् बाधमाना बृहन्विमाजमदग्निदत्ता आसूर्यस्य दुहिता तथा नश्रवो देवेष्वव्रतमजुर्यम् स सर्परेरभरत्तो जमेभ्योधिश्रवः पाञ्चजञ्जासु कृष्टिषु सा पक्ष्या आनव्यमाजुर्दधानायाम् मे फलस्त्यजमदग्नजो दधुः स्थिरौ गावौ भवताम् वेणुरक्षो मेषा विमर्हिमाजुगम् विशारि इन्द्रः पातल्ये ददताम् शरीतोररिष्टने मे अभिनः सजस्व बलन्धेहि धनोषु नो बलमिन्द्रारणुत्सुनः बलन्तोकाजतनजाय जीवसे त्वम् हि बलदा असि अभिव्यजस्व खदिरस्य सारमोजो अधेः स्पन्दने शिंशपाजाम् अक्षवीळो वीळित वीळजस्व माजामा तस्मादवजीहि पोनः अजमस्मान् वनस्पधर्मा च हामाचरीरिषत स्वस्त्या गृहेभ्य आवसा अभिवाचनात् इन्द्रोतिभर्बहुलाभर्नो अद्यजा श्रेष्ठाभर्मघवञ्छोरजिन्व यो नो द्वेष्ट्यधरः सस्पदेष्टजबुद्भिष्मस्तव प्राणो जहातो परशुम् चिद्वितपदिशिम् बलम् चिद्विवृश्चति उखाचिदिन्द्रजेषन्ति प्रजस्ताफे नमस्यति न साजकस्य जिकिते जनासो लोधन् नयन्ति पशुमञ्जमानाः नावाजिनम् वाजिनाः सयन्ति न गर्दभम् पुरो अश्वान्नयन्ति इव इन्द्रभरतस्य पुत्रा अपवित्वम् जगितुर्न प्रभित्वम् हिन्वन्त्यश्वमरणन्न नित्यम् ज्यावाजम् वरिणयन्त्याजौ